इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी गतसायम् आभासीय माध्यमेन परमरुद्रः इत्याख्यम् सुपर कम्प्यूटिंग सिस्टम संगणकतन्त्रस्य ऋतुविज्ञानस्य ऋतुदशा विज्ञानस्य कृते च उच्चगुणवत्तायुक्त संगणकस्य उद्घाटनं कृतवान्। ध्येयमस्ति यत् प्रायः त्रिंशदुत्तरैकशतकोटिरूप्यकैः परमरुद्रः इत्याख्यः समुच्चगुणवत्तायुतः संगणकः राष्ट्रिय सुपर कम्प्यूटिंग मिशन इत्यभियानान्तर्गतं दैशिकरूपेण एव विकसितः अस्ति। भारतः वैश्विक नवाचार सूचकांके GII इत्यस्मिन् चतुर्विंशत्यधिक द्विसहस्रतमे वर्षे त्रयस्त्रिंशदधिकैकशत वैश्विक अर्थव्यवस्थास् भारतम् ऊनचत्वारिंशत्तमं स्थानं प्राप्तम्। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः उक्तवान् यत् मध्य दक्षिण एशियायोः दशस् अर्थव्यवस्थास् भारतं प्रथमे स्थाने वर्तते। एक्स इत्यत्र श्रीगोयलेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः निर्णायक नेतृत्वस्य मार्गदर्शने उल्लेखनीयाः उपलब्धयः प्रकाशिताः। यत् मध्य दक्षिण एशियादेशयोः दशस् अर्थव्यवस्थास् भारतस्य प्रथमं स्थानम्, लघु मध्यम आय अर्थव्यवस्थास् प्रथमं स्थानम्, विपो संस्थायां चतुर्थं स्थानं च अस्ति इति विज्ञान एवं प्रौद्योगिकी SNT इत्यस्मिन् क्लस्टर इति स्थानमस्ति। केन्द्र सर्वकारेण परिवर्तनीय महत्कार वेतन संशोधनं कृत्वा न्यूनतम वेतन दरेषु वृद्धि घोषिता। नूतनाः वेतनदराः आगामि मासस्य प्रथमदिनात् आरभ्य प्रभावं प्राप्नुयुः। न्यूनतम वेतनस्य दराः कौशलस्तरस्य आधारेण वर्गीकृताः सन्ति। अकुशलः, अर्थकुशलः, कुशलः, अत्यन्तं कुशलश्च। लेबनान स्थितस्य ह्यः इज़राइल देशेन प्रहारेण हिजबुल्लाह संघस्य शीर्षसेनापतिः मोहम्मद हुसैन सरूरः मृतः। अस्माकं संवाददात्रानुसारि इज़राइल रक्षा सेना हिजबुल संघस्य विमानसेनापतेः मोहम्मद हुसैन सरूरस्य उपरि वेरूत नगरे वायवीयाक्रमणे मृत्योः पुष्टि कृता। लेबनान स्थितस्य वेरूत स्थितेन भारतीय दूतावासेन इज़राइल देशस्य हिजबुल्लाह गुल्मस्य च मध्ये विवर्धमानं संघर्षं निध्याय भारतीय नागरिकाः परामृष्टाः सन्ति यत्ते यथाशीघ्रं लेबनान देशं त्ययेयुः। अथ च न केऽपि भारतीयाः मध्ये युद्धं लेबनानस्य यात्रा नैव कुर्युः, येन तेषां प्राणसंकटं नैव भवेत्। अपि च दूतावासेन एतदपि भणितं यत् ये जनाः अत्रैव केनापि कारणेन निरुद्धाः सन्ति उत स्थातुं विवशाः सन्ति चेत् ते आवश्यकतां विना गृहाद् बहिः नैव गच्छेयुः, सावधानतया कार्यं विध्युः, निरन्तरं दूतावासस्य सम्पर्के तिष्ठेयुः चेति। ध्येयमस्ति यत् सद्यस्तनीये इज़राइल देशीये वायवीयाक्रमणे लेबनान देशस्य 85-500 जनाः पञ्चताम् प्राप्ताः सन्ति। मृतकेषु 50 बालकाः अपि समाविशन्ति। भारत बांग्लादेशयोः मध्ये द्वितीयान्तिम निकष स्पर्धा अद्य कानपुरनगरस्य ग्रीन पार्क क्रिकेट क्रीडांगणे भविष्यति। अवधेयं वर्तते यत् भारतेन बांग्लादेशं प्रथमे निकष स्पर्धायां 80-200 धावनांकानां बृहदंकैः पराजितम् आसीत् इति वार्ताः।